श्री गंगा सहस्त्रनामावली ओम ओंकार रूपिण्यै नमः ओम अजरायै नमः ओम अतुलायै नमः ओम अनंतायै नमः ओम अमृतस्त्रवायै नमः ओम अत्युदारायै नमः ओम अभयायै नमः ओम अशोकायै नमः ओम अलकनंदायै नमः ओम अमृतायै नमः ओम अमलायै नमः ओम अनाथवत्सलायै नमः ओम अमोघायै नमः ओम अपायोनये नमः ओम अमृतप्रदायै नमः ओम अव्यक्तलक्षणायै नमः ओम अक्षोभ्यायै नमः ओम अनवच्छिन्नायै नमः ओम अपरायै नमः ओम अंजितायै नमः ओम अनाथनाथायै नमः ओम अभीष्टार्थसिद्धिदायै नमः ओम अनंगवर्धिन्यै नमः ओम अणिमादिगुणायै नमः ओम आधारायै नमः ओम अग्रगण्यायै नमः ओम अलीकहारिण्यै नमः ओम अचिंत्यशक्तये नमः ओम अनघायै नमः ओम अद्भुतस्वरूपायै नमः ओम अगहारिण्यै नमः ओम अद्रिराजसुतायै नमः ओम अष्टांगयोगसिद्धिप्रदायै नमः ओम अच्युतायै नमः ओम अक्षुण्णशक्तये नमः ओम असुदायै नमः ओम अनंततीर्थायै नमः ओम अमृतोदकायै नमः ओम अनंतमहिम्ने नमः ओम अपारायै नमः ओम अनंतसौख्यप्रदायै नमः ओम अन्नदायै नमः ओम अशेषदेवतामूर्तये नमः ओम अघोरायै नमः ओम अमृतरूपिण्यै नमः ओम अविद्याजालशमन्यै नमः ओम अप्रतक्यर्गतिप्रदायै नमः ओम अशेषविघ्नसंहर्त्र्यै नमः ओम अशेषगुणगुम्फितायै नमः ओम अज्ञानतिमिरज्योतिषे नमः ओम अनुग्रहपरायणायै नमः ओम अभिरामायै नमः ओम अनवद्यांग्यै नमः ओम अनंतसारायै नमः ओम अकलंकिन्यै नमः ओम आरोग्यदायै नमः ओम आनंदवल्यै नमः ओम आपन्नार्तिविनाशिन्यै नमः ओम आश्चर्यमूर्तये नमः ओम आयुष्यायै नमः ओम आठ्यायै नमः ओम आद्यायै नमः ओम आप्रायै नमः ओम आर्यसेवितायै नमः ओम आप्यायिन्यै नमः ओम आप्तविद्यायै नमः ओम आख्यायै नमः ओम आनंदायै नमः ओम आश्वासदायिन्यै नमः ओम आलस्यज्ञै नमः ओम आपदामहन्त्र्यै नमः ओम आनंदामृतवर्षिण्यै नमः ओम इरावत्यै नमः ओम इष्टदात्र्यै नमः ओम इष्ठायै नमः ओम इष्टापूर्तफलप्रदायै नमः ओम इतिहासश्रुतिज्ञार्थायै नमः ओम इहामुत्रशुभप्रदायै नमः ओम इज्जाशीलसमिज्येष्ठायै नमः ॐ इन्द्रादिपरिवन्दितायै नमः ॐ इलालङ्कारमालायै नमः ॐ इद्धायै नमः ॐ इन्दिरारम्यमन्दिरायै नमः ॐ इते नमः ॐ इन्दिरादिसंसेव्यायै नमः ॐ ईश्वर्यै नमः ॐ ईश्वरवल्लभायै नमः ॐ ईतिभीतिहरायै नमः ॐ ईड्यायै नमः ॐ ईडनीयचरित्रभृते नमः ॐ उत्कृष्टशक्तये नमः ॐ उत्कृष्टायै नमः ॐ उडुपमण्डलचारिण्यै नमः ॐ उदिताम्बरमार्गायै नमः ॐ उस्त्रायै नमः ॐ उरगलोकविहारिण्यै नमः ॐ उक्षायै नमः ॐ उर्वरायै नमः ॐ उत्पलायै नमः ॐ उत्कुम्भायै नमः ॐ उपेन्द्रचरणद्रवायै नमः ॐ उदन्वत्पूर्तिहेतवे नमः ॐ उदारायै नमः ॐ उत्साहप्रवर्धिन्यै नमः ॐ उद्वेगघ्नयै नमः ॐ उष्णशमन्यै नमः ॐ उष्णरश्मिसुताप्रियायै नमः ॐ उत्पत्तिस्थितिसंहारकारिण्यै नमः ॐ उपरिचारिण्यै नमः ॐ ऊर्जवहन्त्यै नमः ॐ ऊर्जधरायै नमः ॐ ऊर्जावत्यै नमः ॐ ऊर्मिमालिन्यै नमः ॐ ऊर्ध्वरेतप्रियायै नमः ॐ ऊर्ध्वाध्वायै नमः ॐ ऊर्मिलायै नमः ॐ ऊर्ध्वगतिप्रदायै नमः ॐ ऋषिवृन्दस्तुतायै नमः ॐ ऋद्धये नमः ॐ ऋणत्रयविनाशिन्यै नमः ॐ ऋतम्भरायै नमः ॐ ऋद्धिदात्र्यै नमः ॐ ऋक्स्वरूपायै नमः ॐ ऋजुप्रियायै नमः ॐ वृक्षमार्गवहायै नमः ॐ वृक्षार्चिषे नमः ॐ ऋजुमार्गप्रदर्शिन्यै नमः ॐ एधिताखिलधर्मार्थायै नमः ॐ एकस्यै नमः ॐ एकामृदायिन्यै नमः ॐ एधनीयस्वभावै नमः ॐ एज्यायै नमः ॐ एजिताशेषपातकायै नमः ॐ ऐश्वर्यदायै नमः ॐ ऐश्वर्यरूपायै नमः ॐ ऐतिह्यायै नमः ॐ ऐन्दवद्युतये नमः ॐ ओजस्विन्यै नमः ॐ औषधीक्षेत्रायै नमः ॐ ओजोदायै नमः ॐ ओदनदायिन्यै नमः ॐ ओष्टामृतायै नमः ॐ औन्नत्यदात्र्यै नमः ॐ अवरोगिणामोषधायै नमः ॐ औदार्यचञ्चुरायै नमः ॐ औपेन्द्रायै नमः ॐ औग्रयै नमः ॐ औमेयरूपिण्यै नमः ॐ अम्बराध्वहायै नमः ॐ अम्बष्टायै नमः ॐ अम्बरमालायै नमः ॐ अम्बुजेक्षणायै नमः ॐ अम्बिकायै नमः ॐ अम्बुमहायोनये नमः ॐ अन्धोदायै नमः ॐ अन्धकहारिण्यै नमः ॐ अंशुमालायै नमः, ॐ अशुमत्यै नमः, ॐ अंगीकृत षडाननायै नमः, ॐ अंधतामिस्रहन्त्रयै नमः, ॐ अंधवे नमः, ॐ अंजनायै नमः, ॐ अंजनावत्यै नमः, ॐ कल्याणकारिण्यै नमः, ॐ काम्यायै नमः, ॐ कमलोपलगन्धिन्यै नमः, ॐ कुमुद्वत्यै नमः, ॐ कमलिन्यै नमः, ॐ कांतायै नमः, ॐ कल्पितदायिन्यै नमः, ॐ कांचनाक्षै नमः, ॐ कामधेनवे नमः, ॐ कीर्तिकृते नमः, ॐ क्लेशनाशिन्यै नमः, ॐ क्रतुश्रेष्ठायै नमः, ॐ क्रतुफलायै नमः, ॐ कर्मबन्धविभेदिन्यै नमः, ॐ कमलाक्षै नमः, ॐ क्लमहरायै नमः, ॐ कृशानुतपनजितये नमः, ॐ करुणार्द्रायै नमः, ॐ कल्याणै नमः, ॐ कलिकल्मषनाशिन्यै नमः, ॐ कामरूपायै नमः, ॐ क्रियाशक्तयै नमः, ॐ कमलोत्पलमालिन्यै नमः, ॐ कूटस्थायै नमः, ॐ करुणायै नमः, ॐ कांतायै नमः, ॐ कूर्मयानायै नमः, ॐ कलावत्यै नमः, ॐ कमलायै नमः, ॐ कल्पलतिकायै नमः, ॐ काल्यै नमः, ॐ कलुषवैरिण्यै नमः, ॐ कमनीयजलायै नमः, ॐ कम्रायै नमः, ॐ कपर्दिस्सुकपर्दगायै नमः, ॐ कालकुटप्रशमन्यै नमः, ॐ कदम्बकुसुमप्रियायै नमः, ॐ कालिन्द्यै नमः, ॐ केलिललितायै नमः, ॐ कलकल्लोलमालिकायै नमः, ॐ क्रांतलोकत्रयायै नमः, ॐ कण्डवै नमः, ॐ कण्डूतनयवत्सलायै नमः, ॐ खड्गिन्यै नमः, ॐ खड्गधाराभायै नमः, ॐ खगायै नमः, ॐ खण्डेन्दुधारिण्यै नमः, ॐ खेखेलगामिन्यै नमः, ॐ खस्थायै नमः, ॐ खण्डेन्दुतिलकप्रियायै नमः, ॐ खेचर्यै नमः, ॐ खेचरीवन्द्यायै नमः, ॐ ख्यात्यै नमः, ॐ ख्यातिप्रदायिन्यै नमः, ॐ खण्डितप्रणताघोघायै नमः, ॐ खलबुद्धिविनाशिन्यै नमः, ॐ खातैन कन्दसन्दोहायै नमः, ॐ खड्गखट्वाङ्गखेटिन्यै नमः, ॐ खरसन्तापशमन्यै नमः, ॐ पीयूषपातसाङ्खन्नये नमः, ॐ गङ्गायै नमः, ॐ गन्धवत्यै नमः, ॐ गौर्यै नमः, ॐ गन्धर्वनगरप्रियायै नमः, ॐ गम्भीराङ्ग्यै नमः, ॐ गुणमय्यै नमः, ॐ गतातङ्कायै नमः, ॐ गतिप्रियायै नमः, ॐ गणनाथाम्बिकायै नमः, ॐ गीतायै नमः, ॐ गद्यपद्यपरिष्टुतायै नमः, ॐ गान्धार्यै नमः, ॐ गर्भशमन्यै नमः, ॐ गतिभ्रष्ट गतिप्रदायै नमः ॐ गोमन्त्यै नमः ॐ गुह्यविद्यायै नमः ॐ गवे नमः ॐ गोप्त्रयै नमः ॐ गगनगामिन्यै नमः ॐ गोत्रप्रवर्धिन्यै नमः ॐ गुण्यायै नमः ॐ गुणातीतायै नमः ॐ गुणाग्रण्यै नमः ॐ गुहाम्बिकायै नमः ॐ गिरिसुतायै नमः ॐ गोविन्दाग्रिसमुद्भवायै नमः ॐ गुणनीयचरित्रायै नमः ॐ गायत्र्यै नमः ॐ गिरिशप्रियायै नमः ॐ गूढरूपायै नमः ॐ गुणवत्यै नमः ॐ गुर्वै नमः ॐ गौरववर्धिन्यै नमः ॐ ग्रहपीडाहरायै नमः ॐ गुन्द्रायै नमः ॐ गरद्धन्यै नमः ॐ गानवत्सलायै नमः ॐ धर्महन्त्र्यै नमः ॐ घृतवत्यै नमः ॐ घृततुष्टिप्रदायिन्यै नमः ॐ घण्टारवप्रियायै नमः ॐ घोराघौघविध्वंसकारिण्यै नमः ॐ घ्राणतुष्टिकर्यै नमः ॐ घोषायै नमः ॐ घनानन्दायै नमः ॐ घनप्रियायै नमः ॐ घातुकायै नमः ॐ घूर्णितजलायै नमः ॐ घृष्टपातकसन्तत्यै नमः ॐ घटकोटिप्रपीतापायै नमः ॐ घटिताशेषमङ्गलायै नमः ॐ घृणावत्यै नमः ॐ घृणनिधये नमः ॐ घस्मरायै नमः ॐ घूकनादिन्यै नमः ॐ घुसृणापिञ्जरतनवे नमः ॐ घर्घरायै नमः ॐ घर्घरस्वनायै नमः ॐ चन्द्रिकायै नमः ॐ चन्द्रकान्ताम्बवे नमः ॐ चञ्चदापायै नमः ॐ चलद्युतये नमः ॐ चिन्मय्यै नमः ॐ चितिरूपायै नमः ॐ चन्द्रायुतशताननायै नमः ॐ चाम्पेयलोचनायै नमः ॐ चारवे नमः ॐ चार्वज्ञै नमः ॐ चारुगामिन्यै नमः ॐ चार्यायै नमः ॐ चारित्रनिलयायै नमः ॐ चित्रकृते नमः ॐ चित्ररूपिण्यै नमः ॐ चम्फै नमः ॐ चन्दनशुच्चम्बवे नमः ॐ चर्चनीयायै नमः ॐ चिरस्थिरायै नमः ॐ चारुचम्पकमालाढ्यायै नमः ॐ चमिताशेषदुष्कृतायै नमः ॐ चिदाकाशवहायै नमः ॐ चिन्त्यायै नमः ॐ चञ्चते नमः ॐ चामरिविजितायै नमः ॐ चोरिताशेषवृजिनायै नमः ॐ चरिताशेषमण्डलायै नमः ॐ छेदिताखिलपापोधायै नमः ॐ समाहिताय नमः ॐ धर्मकेतवे नमः ॐ धर्मरतये नमः ॐ संहर्त्रे नमः ॐ संयमाय नमः ॐ यमाय नमः ॐ प्रणतार्तिहराय नमः ॐ वादिने नमः ॐ ऋतवे नमः ఓం కాలానలద్యుతయే నమః ఓం సుఖసేవ్యాయ నమః ఓం మహాతేజసే నమః ఓం జగతామాదికారణాయ నమః ఓం మహేంద్రాయ నమః ఓం అభిష్టుతాయ నమః ఓం స్తోత్రస్తుతిహేతవే నమః ఓం విభాకరాయ నమః ఓం సహస్రకరాయ నమః ఓం ఆయుష్యమతే నమః ఓం ఆరోషాయ నమః ఓం సుఖదాయ నమః ఓం సుఖినే నమః ఓం వ్యాధిగ్నే నమః ఓం దుఃఖగ్నే నమః ఓం సౌఖ్యాయ నమః ఓం కళ్యాణాయ నమః ఓం కల్పినాంబరాయ నమః ఓం అరోగకారణాయ నమః ఓం వృద్ధయే నమః ఓం సిద్ధయే నమః ఓం వృద్ధయే నమః ఓం అహస్పతయే నమః ఓం హిరణ్యరేతసే నమః ఓం ఆరోగ్యాయ నమః ఓం విదుషే నమః ఓం బంధవే నమః ఓం బుధాయ నమః ఓం మహతే నమః ఓం ప్రాణవతే నమః ఓం ధీమతే నమః ఓం ధర్మాయ నమః ఓం ధర్మకర్త్రే నమః ఓం రుచిప్రదాయ నమః ఓం సర్వప్రియాయ నమః ఓం సర్వసహాయ నమః ఓం సర్వశత్రునివారణాయ నమః ఓం ప్రాంచవే నమః ఓం విద్యోదనాయ నమః ఓం ద్యోతాయ నమః ఓం సహస్రకిరణాయ నమః ఓం కృతినే నమః ఓం కేయూరభూషణోద్భాసినే నమః ఓం భాసితాయ నమః ఓం భాసనాయ నమః ఓం అనలాయ నమః ఓం శరణ్యార్తిహరాయ నమః ఓం దాత్రే నమః ఓం ఖద్యోతాయ నమః ఓం ఖగసత్తమాయ నమః ఓం కర్మసాక్షిణే నమః ఓం తమోరాతయే నమః ఓం సర్వద్యుతిహరాయ నమః ఓం అమలాయ నమః ఓం కళ్యాణినే నమః ఓం కళ్యాణకరాయ నమః ఓం కల్పాయ నమః ఓం కల్పకరాయ నమః ఓం కవయే నమః ఓం కళ్యాణసృజే నమః ఓం కల్పవపుషే నమః ఓం సర్వకళ్యాణభాజనాయ నమః ఓం శాంతిప్రియాయ నమః ఓం ప్రసన్నాత్మనే నమః ఓం ప్రశాంతాయ నమః ఓం ప్రశమప్రియాయ నమః ఓం ఉదారకర్మణే నమః ఓం సునయాయ నమః ఓం సువర్చసే నమః ఓం వర్చసోజ్వలాయ నమః ఓం వర్చస్వినే నమః ఓం వర్చసామిషాయ నమః ఓం త్రైలోకేశాయ నమః ఓం వశానుగాయ నమః ఓం ఓజస్వినే నమః ఓం సుయేషసే నమః ఓం వర్ణినే నమః ఓం వర్ణాధ్యక్షాయ నమః ఓం బలిప్రియాయ నమః ఓం యశస్వినే నమః ఓం వేదనిలయాయ నమః ఓం తేజస్వినే నమః ఓం ప్రకృతిస్థితాయ నమః ఓం ఆకాశగాయ నమః ఓం శీఘ్రరతయే నమః ఓం ఆశుగాయ నమః ఓం శృతిమతే నమః ఓం స్వర్గాయ నమః ఓం గోపతయే నమః ఓం గ్రహదేవేశాయ నమః ఓం గోమతే నమః ఓం ఏకాయ నమః ఓం ప్రభంజనాయ నమః ఓం జనయిత్రే నమః ఓం ప్రజనాయ నమః ఓం దీపాయ నమః ओम जीवाय नमः, ओम सर्व प्रकाश कृते नमः, ओम कर्म साक्षिणे नमः, ओम योग नित्याय नमः, ओम नभश्रिये नमः, ओम असुरांतकाय नमः, ओम रक्षोघ्नाय नमः, ओम विघ्नशमनाय नमः, ओम किरीटने नमः, ओम सुमनप्रियाय नमः, ओम मरीचिमते नमः, ओम अनुमते नमः, ओम गतक्षोभाय नमः, ओम विशेषकाय नमः, ओम शिष्टाचाराय नमः, ओम सदाचाराय नमः, ओम सचाराय नमः, ओम चारतत्पराय नमः, ओम मंदराय नमः, ओम माठराय नमः, ओम रेणवे नमः, ओम क्षोभणाय नमः, ओम पक्षिणांगुरवे नमः, ओम कृतक्षोभ्याय नमः, ओम विशिष्टात्मने नमः, ओम विधेयाय नमः, ओम ज्ञानशोभनाय नमः, ओम श्वेतकांताय नमः, ओम महाश्वेताय नमः, ओम सानुगाय नमः, ओम मोक्षदाय नमः, ओम सर्ववेद प्रगीतात्मने नमः, ओम सर्ववेदलयाय नमः, ओम आलयाय नमः, ओम वेदमूर्तये नमः, ओम चतुर्वेदाय नमः, ओम वेदाब्धिने नमः, ओम वेदपारगाय नमः, ओम क्रियावते नमः, ओम अतिरोचिष्णवे नमः, ओम वरीयसे नमः, ओम वरप्रदाय नमः, ओम व्रतधारिणे नमः, ओम व्रतधराय नमः, ओम लोकबंधवे नमः, ओम अलंककृताय नमः, ओम अलंकाराय नमः, ओम अक्षराय नमः, ओम दिव्य विद्यावते नमः, ओम विदिताशयाय नमः, ओम प्रभापूर्णाय नमः, ओम जितरिपवे नमः, ओम सुजनाय नमः, ओम अरुणसारथये नमः, ओम कुबेराय नमः, ओम सुरथाय नमः, ओम स्कंदाय नमः, ओम महिताय नमः, ओम अभिहिताय नमः, ओम गुरवे नमः, ओम ग्रहराजाय नमः, ओम ग्रहपतये नमः, ओम ग्रहनक्षत्रमंडनाय नमः, ओम भास्कराय नमः, ओम सततानंदाय नमः, ओम नंदनाय नमः, ओम वरवाहनाय नमः, ओम चतुर्मुखाय नमः, ओम पद्ममालिने नमः, ओम पूतात्मने नमः, ओम प्रणतार्तिघ्ने नमः, ओम अकिंचनाय नमः, ओम सत्यसंधाय नमः, ओम निर्गुणाय नमः, ओम गुणवते नमः, ओम गुणिने नमः, ओम संपूर्णाय नमः, ओम पुंडरीकाक्षाय नमः, ओम विधेयाय नमः, ओम योगतत्पराय नमः, ओम सहस्रांशवे नमः, ओम ऋतुपतये नमः, ओम सर्वस्वाय नमः, ओम सुमतये नमः, ओम सुवाचे नमः, ओम सुवाहनाय नमः, ओम माल्यदाम्ने नमः, ओम घृताहाराय नमः, ओम हरिप्रियाय नमः, ओम प्रथिताय नमः, ओम ब्राह्मणाय नमः, ओम ब्रह्मणे नमः, ओम प्रतीतात्मने नमः, ओम सुरालयाय नमः, ओम शतबिंदवे नमः, ओम शतमखाय नमः, ओम गरीयसे नमः, ॐ अनलप्रदाय नमः ॐ धीराय नमः ॐ महत्तराय नमः ॐ धन्यपुरुषाय नमः ॐ पुरुषोत्तमाय नमः ॐ सुसंस्थिताय नमः ॐ दिव्यरथाय नमः ॐ मोक्षाधारनिकेतनाय नमः ॐ वैद्याय नमः ॐ राजाधिराजाय नमः ॐ विद्याराजाय नमः ॐ विवादकृते नमः ॐ अनिर्देश्यवपुषे नमः ॐ श्रीदाय नमः ॐ वीरेन्द्राय नमः ॐ बहुमंगलाय नमः ॐ निर्द्वन्द्वाय नमः ॐ द्वन्द्वघ्ने नमः ॐ सर्गाय नमः ॐ सर्वगाय नमः ॐ सर्वप्रकाशकाय नमः ॐ चतुर्वेधराय नमः ॐ नित्याय नमः ॐ विनिन्द्राय नमः ॐ विविधाशनाय नमः ॐ चक्रवर्तिने नमः ॐ धृतिकराय नमः ॐ महाराजाय नमः ॐ महेश्वराय नमः ॐ विचित्ररथाय नमः ॐ एकाकिनये नमः ॐ सप्तसप्तये नमः ॐ परात्पराय नमः ॐ सर्वोद्धतिस्थितिकराय नमः ॐ स्थितये नमः ॐ स्थेयाय नमः ॐ स्थितिप्रियाय नमः ॐ निष्कलाय नमः ॐ पुष्कलनभसे नमः ॐ वसुधाय नमः ॐ वासवप्रियाय नमः ॐ वसुमते नमः ॐ वासवस्वामिने नमः ॐ वसुराजाय नमः ॐ वसुप्रियाय नमः ॐ बलवते नमः ॐ ज्ञानवते नमः ॐ स्वाहा स्वधा वेदाधिकार नमः ॐ संकल्पयोनये नमः ॐ दीनकृते नमः ॐ भगवते नमः ॐ कारणावहाय नमः ॐ नीलकंठाय नमः ॐ धनाध्यक्षाय नमः ॐ धनिने नमः ॐ धर्मिणे नमः ॐ प्रियंवदाय नमः ॐ वषट्काराय नमः ॐ हुताय नमः ॐ होत्रे नमः ॐ स्वाहाकाराय नमः ॐ हुताहुतये नमः ॐ जनार्दनाय नमः ॐ जनानन्दिने नमः ॐ नराय नमः ॐ नारायणाय नमः ॐ अम्बुदाय नमः ॐ स्वर्णांगाय नमः ॐ क्षपणाय नमः ॐ वायवे नमः ॐ आयवे नमः ॐ सुरनमस्कृताय नमः ॐ विग्रहाय नमः ॐ विमलाय नमः ॐ बिन्दवे नमः ॐ विशोकाय नमः ॐ विमलद्युतये नमः ॐ द्योतिताय नमः ॐ द्योतनाय नमः ॐ विदुषे नमः ॐ विवित्वते नमः ॐ वरदाय नमः ॐ बलिने नमः ॐ धर्मयोनये नमः ॐ महामोहाय नमः ॐ विष्णुभ्रात्रे नमः ॐ सनातनाय नमः ॐ सावित्रीभाविताय नमः ॐ राज्ञे नमः ॐ विस्तृताय नमः ॐ विघ्नाय नमः ॐ विराजे नमः ॐ सप्तार्चिषे नमः ॐ सत्यतुरगाय नमः ॐ सत्यलोकनमस्कृताय नमः ॐ सम्पन्नाय नमः ॐ गुणसम्पन्नाय नमः ॐ सुमनसे नमः ॐ शोभनप्रियाय नमः ॐ सर्वात्मने नमः ॐ सर्वकृते नमः ఓం సృష్టయే నమః ఓం సప్తిమతే నమః ఓం సప్తమీ ప్రియాయ నమః ఓం సుమేధసే నమః ఓం మాధవాయ నమః ఓం మందాయ నమః ఓం మేధావినే నమః ఓం మధుసూదనాయ నమః ఓం అంగిరసే నమః ఓం గతికాలజ్ఞాయ నమః ఓం ధూమకేతవే నమః ఓం సుకేతనాయ నమః ఓం సుఖినే నమః ఓం సుఖప్రదాయ నమః ఓం సౌఖ్యాయ నమః ఓం కామినే నమః ఓం కాంతిప్రియాయ నమః ఓం మునయే నమః ఓం సంతపనాయ నమః ఓం ఆతపినే నమః ఓం తపసాంపతయే నమః ఓం ఉగ్రస్రవతే నమః ఓం సహస్రోస్త్రాయ నమః ఓం ప్రియకారిణే నమః ఓం ప్రియంకరాయ నమః ఓం ప్రీతాయ నమః ఓం విమన్యవే నమః ఓం అంభోదాయ నమః ఓం జీవనాయ నమః ఓం జగతాంపతయే నమః ఓం జగన్మిత్రే నమః ఓం ప్రీతమనసే నమః ఓం సర్వగాయ నమః ఓం సర్వాయ నమః ఓం సర్వగుహాయ నమః ఓం బలాయ నమః ఓం జగదాయ నమః ఓం జగదానందినే నమః ఓం జగత్రాత్రే నమః ఓం సురారిఘ్నే నమః ఓం శ్రేయసే నమః ఓం శ్రేయస్కరాయ నమః ఓం జాయసే నమః ఓం ఉత్తమోత్తమాయ నమః ఓం ఉత్తమాయ నమః ఓం మహామేరవే నమః ఓం మహాశైలాయ నమః ఓం ధరణాయ నమః ఓం ధరణీధరాయ నమః ఓం ధరాధరాయ నమః ఓం ధర్మరాజాయ నమః ఓం ధర్మాధర్మ ప్రవర్తకాయ నమః ఓం రథాధ్యక్షాయ నమః ఓం రథపత్తయే నమః ఓం త్వరమాణాయ నమః ఓం అమితానలాయ నమః ఓం ఉత్తరాయ నమః ఓం పూర్వాదిక్స్వామినే నమః ఓం తారాపతయే నమః ఓం అపాంపతయే నమః ఓం పుణ్యసంకీర్తనాయ నమః ఓం పుణ్యహేతవే నమః ఓం లోకరథాశ్రయాయ నమః ఓం స్వర్భానవే నమః ఓం విహగారిష్టాయ నమః ఓం విశిష్టోత్కృష్టకర్మకృతే నమః ఓం వ్యాధిప్రణాశనాయ నమః ఓం కేతవే నమః ఓం శూరాయ నమః ఓం సర్వజితాంబరాయ నమః ఓం ఏకనాథాయ నమః ఓం రథాధీశాయ నమః ఓం శనైశ్చరపిత్రే నమః ఓం అసితాయ నమః ఓం వైవస్వతగురవే నమః ఓం మృత్యవే నమః ఓం నిత్యధర్మాయ నమః ఓం మహాబలాయ నమః ఓం ప్రలంబహారాయ నమః ఓం సచారిణే నమః ఓం ప్రద్యోతాయ నమః ఓం విశ్వాయై నమః ఓం వ్యాపిన్యై నమః ఓం విశారణ్యై నమః ఓం వృషాంకమౌలినిలయాయై నమః ఓం విపన్నార్తి ప్రభంజిన్యై నమః ఓం వినితాయై నమః ఓం వినతాయై నమః ఓం బ్రహ్మగ్న తనయాయై నమః ఓం వినయాన్వితాయై నమః ఓం విపంచై నమః ఓం వాద్యకుశలాయై నమః ఓం వేణుశ్రుతి విచక్షణాయై నమః ఓం వర్చస్కర్యై నమః ఓం వలకర్యై నమః ఓం వలోన్మూలిత కల్మషాయై నమః ఓం విపాప్మనే నమః ఓం విగతాతంకాయై నమః ఓం వికల్ప పరివర్జితాయై నమః ఓం వృష్టికర్త్రై నమః ఓం వృష్టిజలాయై నమః ओम विधयै नमः, ओम विच्छिन्न बंधनायै नमः, ओम व्रतरूपायै नमः, ओम वित्तरूपायै नमः, ओम बहुविघ्न विनाशकृते नमः, ओम वसुधारायै नमः, ओम वसुमत्यै नमः, ओम विचित्रांग्यै नमः, ओम विभावसवे नमः, ओम विधयायै नमः, ओम विश्वबीजायै नमः, ओम वामदेव्यै नमः, ओम वरप्रदायै नमः, ओम वृषाश्रितायै नमः, ओम विषघ्न्यै नमः, ओम विज्ञानोर्म्य शुमालिन्यै नमः, ओम भव्यायै नमः, ओम भोगव्रत्यै नमः, ओम भद्रायै नमः, ओम भवान्यै नमः, ओम भूतभाविन्यै नमः, ओम भूतधात्र्यै नमः, ओम भयहरायै नमः, ओम भक्तदारिद्र्यघातिन्यै नमः, ओम भुक्तिमुक्तिप्रदायै नमः, ओम भीष्यै नमः, ओम भक्तस्वर्गापवर्गदायै नमः, ओम भागीरथ्यै नमः, ओम भानुमत्यै नमः, ओम भाग्यायै नमः, ओम भोगवत्यै नमः, ओम भृतये नमः, ओम भवप्रियायै नमः, ओम भवद्वेष्ट्रयै नमः, ओम भूतिदायै नमः, ओम भूतिभूषणायै नमः, ओम भाललोचन भावज्ञायै नमः, ओम भूतभव्य भवत्प्रभवे नमः, ओम भ्रांतिज्ञान प्रशमन्यै नमः, ओम भिन्न ब्रह्मांड मंडपायै नमः, ओम भूरिदायै नमः, ओम भक्तिसुलभायै नमः, ओम भाग्यवद्दृष्टिगोचर्यै नमः, ओम भंजितोपप्लवकुलायै नमः, ओम भक्षभोज्यसुखप्रदायै नमः, ओम भिक्षणीयायै नमः, ओम भिक्षुमात्रे नमः, ओम भावायै नमः, ओम भावस्वरूपिण्यै नमः, ओम मंदाकिन्यै नमः, ओम महानंदायै नमः, ओम मात्रे नमः, ओम मुक्तितरंगिण्यै नमः, ओम महोदयायै नमः, ओम मधुमत्यै नमः, ओम महापुण्यायै नमः, ओम मुदाकार्यै नमः, ओम मुनिस्तुतायै नमः, ओम मोहहत्र्यै नमः, ओम महातीर्थायै नमः, ओम मधुस्रवायै नमः, ओम माधव्यै नमः, ओम मानिन्यै नमः, ओम मान्यायै नमः, ओम मनोरथ पथातिगायै नमः, ओम मोक्षदार्यै नमः, ओम मतिदायै नमः, ओम मुखायै नमः, ओम महाभाग्य जनाश्रितायै नमः, ओम महावेगवत्यै नमः, ओम मेध्यमायै नमः, ओम महायै नमः, ओम महिमभूषणायै नमः, ओम महाप्रभावायै नमः, ओम महत्यै नमः, ओम मीनचञ्चललोचनायै नमः, ओम महाकारुण्यसंपूर्णायै नमः, ओम महद्धर्यै नमः, ओम महोत्पलायै नमः, ओम मूर्तिमते नमः, ओम मुक्तिरमण्यै नमः, ओम मणिमाणिक्यभूषणायै नमः, ओम मुक्ताकलापनेपथ्यायै नमः, ओम मनोनयननन्दिन्यै नमः, ओम महापातकराशिघ्न्यै नमः, ओम महादेवार्धहारिण्यै नमः, ओम महोर्मिमालिन्यै नमः, ओम मुक्तायै नमः, ओम महादेव्यै नमः, ओम मनोन्मन्यै नमः, ॐ महापुण्योदयप्राप्यायै नमः ॐ मायातिमिरचन्द्रिकायै नमः ॐ महाविद्यायै नमः ॐ महावायायै नमः ॐ महामेधायै नमः ॐ महौषधायै नमः ॐ मालाधर्यै नमः ॐ महोपायायै नमः ॐ महोरगविभूषणायै नमः ॐ महामोह प्रशमन्यै नमः ॐ महामंगल मंगलाय नमः ॐ मार्तण्डमण्डलचर्यै नमः ॐ महालक्ष्म्यै नमः ॐ मदोझिन्तातये नमः ॐ यशस्विन्यै नमः ॐ यशोदायै नमः ॐ योग्यायै नमः ॐ युक्तात्मसेवितायै नमः ॐ योगसिद्धिप्रदायै नमः ॐ याज्यायै नमः ॐ यज्ञेशपरिपूरितायै नमः ॐ यज्ञेशै नमः ॐ यज्ञफलदायै नमः ॐ यजनीयायै नमः ॐ यशस्कर्यै नमः ॐ यमनिसेव्यायै नमः ॐ योगयोनये नमः ॐ योगिन्यै नमः ॐ युक्तबुद्धिदायै नमः ॐ योगज्ञानप्रदायै नमः ॐ युक्तायै नमः ॐ यमाद्यष्टाङ्गयोगयुजे नमः ॐ यन्त्रिताघौघसञ्चारायै नमः ॐ यमलोकनिवारिण्यै नमः ॐ यातायातप्रशमन्यै नमः ॐ यातनानामकृन्तन्यै नमः ॐ यामिनीशहिमाच्छोदायै नमः ॐ युगधर्मविवर्जितायै नमः ॐ रेवत्यै नमः ॐ रतिकृते नमः ॐ रम्यायै नमः ॐ रत्नगर्भायै नमः ॐ रमायै नमः ॐ रतये नमः ॐ रत्नाकरप्रेमपात्राय नमः ॐ रणज्ञायै नमः ॐ रसरूपिण्यै नमः ॐ रत्नप्रासादगर्भायै नमः ॐ रमणीयतरङ्गिण्यै नमः ॐ रत्नार्चिषे नमः ॐ रुद्ररमण्यै नमः ॐ रागद्वेषविनाशिन्यै नमः ॐ रमायै नमः ॐ रामायै नमः ॐ रम्यरूपायै नमः ॐ रोगिजीवात्तुरुपिण्यै नमः ॐ रुचिकृते नमः ॐ रोचन्यै नमः ॐ रम्यायै नमः ॐ रुचिरायै नमः ॐ रोगहारिण्यै नमः ॐ राजहंसायै नमः ॐ रत्रवत्यै नमः ॐ राजत्कल्लोलराजिकायै नमः ॐ रामणीयकरेखायै नमः ॐ रुजारये नमः ॐ रोगशोषिण्यै नमः ॐ राकायै नमः ॐ रङ्कार्तिशमन्यै नमः ॐ रम्यायै नमः ॐ रोलम्बराविण्यै नमः ॐ रागिण्यै नमः ॐ रञ्चिताशिवायै नमः ॐ रूपलावण्यशेवधये नमः ॐ लोकप्रसुवे नमः ॐ लोकबन्धायै नमः ॐ लोलत्कल्लोलमालिन्यै नमः ॐ लीलावत्यै नमः ॐ लोकभूमये नमः ॐ लोकलोचनचन्द्रिकायै नमः ॐ लेखस्रवन्त्यै नमः ॐ लटभायै नमः ॐ लघुरेगाय नमः ॐ लघुत्वहृते नमः ॐ लास्यतरङ्गहस्तायै नमः ॐ ललितायै नमः ॐ लयभङ्गिगायै नमः ॐ लोकबन्धवे नमः ॐ लोकधात्र्यै नमः ॐ लोकोत्तरगुणोर्जितायै नमः ॐ लोकत्रयहितायै नमः ओम लोकायै नमः ओम लक्ष्मी नमः ओम लक्षण लक्षिताय नमः ओम लीलायै नमः ओम लक्षित निर्वाणायै नमः ओम लावण्यमृत वर्षिण्यै नमः ओम वेश्वानर्यै नमः ओम वासवेड्यायै नमः ओम वंध्यत्व परिहारिण्यै नमः ओम वासुदेवांगि घृणेणुघ्नै नमः ओम वज्रि वज्रनिवारण्यै नमः ओम शुभावत्यै नमः ओम शुभफलायै नमः ओम शान्त्यै नमः ओम शांतनुवल्लभायै नमः ओम शूलिन्यै नमः ओम शैशववयसे नमः ओम शीतलामृतवाहिन्यै नमः ओम शोभावत्यै नमः ओम शीलवत्यै नमः ओम शोषिता शेषकिल्बिषायै नमः ओम शरण्यायै नमः ओम शिवदायै नमः ओम शिष्टायै नमः ओम शरजन्मप्रसवे नमः ओम शिवायै नमः ओम शक्तयै नमः ओम शशांक विमलायै नमः ओम शमनस्वस्रं सम्मतायै नमः ओम शमायै नमः ओम शमनमार्गहन्यै नमः ओम शितिकंठ महाप्रियायै नमः ओम शुचये नमः ओम शुचिकरियै नमः ओम शेषायै नमः ओम शेषशाय पदोद्भवायै नमः ओम श्रीनिवास श्रुतये नमः ओम श्रद्धायै नमः ओम श्रीमत्यै नमः ओम श्रियै नमः ओम शुभ्रव्रतायै नमः ओम शुद्धविद्यायै नमः ओम शुभावर्तायै नमः ओम श्रुतानन्दायै नमः ओम श्रुतिस्तुतये नमः ओम शिवेतरज्ञै नमः ओम शर्वयै नमः ओम शांबरी रूपधारिण्यै नमः ओम स्मशान शोधन्यै नमः ओम शांतायै नमः ओम शाश्वते नमः ओम शतधृतिस्तुतायै नमः ओम शालिन्यै नमः ओम शालिशोभाढ्यायै नमः ओम शिखिवाहन गर्भमृते नमः ओम शौसनीय चरित्रायै नमः ओम शातिता शेषपातकायै नमः ओम षड्गुणैश्वर्य संपन्नायै नमः ओम षड्गश्रुति रूपिण्यै नमः ओम षण्डताहारिसलिलायै नमः ओम अष्ट्यायन्नदन तिशतायै नमः ओम सरिद्वरायै नमः ओम सुरसायै नमः ओम सुप्रभायै नमः ओम सुरदीर्धिकायै नमः ओम स्वसिंधवे नमः ओम सर्वदुःखज्ञै नमः ओम सर्वव्याधि महौषधायै नमः ओम सेव्यायै नमः ओम सिद्धये नमः ओम सत्यै नमः ओम सूक्तये नमः ओम स्कंदसुवे नमः ओम सरस्वत्यै नमः ओम संपत्तरंगिण्यै नमः ओम स्तुत्यायै नमः ओम स्थाणुमौलि कृतालयायै नमः ओम स्थैर्यदायै नमः ओम सुभगायै नमः ओम सौख्यायै नमः ओम स्त्रीसौभाग्यदायिन्यै नमः ओम स्वर्गनिश्रेणिकायै नमः ओम सूक्ष्मायै नमः ओम स्वधायै नमः ओम स्वाहायै नमः ओम सुधाजलायै नमः ओम समुद्ररूपिण्यै नमः ओम स्वर्ग्यायै नमः ओम सर्वपातकवैरिण्यै नमः ओम स्मृताघहारिण्यै नमः ओम सीतायै नमः ओम संसारब्धि तरंडिकायै नमः ओम सौभाग्यसौंदर्यै नमः ओम संधायै नमः ओम सर्वसार समन्वितायै नमः ओम हरप्रियायै नमः ॐ ऋषिकेश्यै नमः ॐ हंसरूपायै नमः ॐ हिरण्यमयै नमः ॐ हृताघसङ्घायै नमः ॐ हितकृते नमः ॐ हीलायै नमः ॐ हीलाघ गर्वहृते नमः ॐ क्षेमदायै नमः ॐ क्षालिताघौघायै नमः ॐ क्षुद्रविद्राविण्यै नमः ॐ क्षमायै नमः श्रीगङ्गासहस्रनामावली समाप्ता।